अथ नीतिशतकम् श्रोत्रम् श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन विभाति कायः करुणापराणाम् परोपकारैर्न तु चन्दनेन रत्नैर्महाब्धेस्तु तुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् सुधां विना न प्रययुर्विरामम् न निश्चितार्थाद्विरमन्ति धीरा कदर्थितस्यापि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्ष्टुम् अधोमुखस्यापि कृतस्य वह्नेः नाधशिखायान्ति कदाचिदेव इति श्रीभर्तृहरेः नीतिशतकोद्धृतश्लोकाः।